इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेशस्य विशाखापत्तनम् स्थले 2,00,000,00,000 रूप्यकाणां विभिन्नानां विकासपरियोजनानाम् उद्घाटनं कृत्वा राष्ट्राय समर्पयिष्यति। श्रीमोदी विशाखापत्तनम् स्थलं निकषा पुदीमदका इत्यत्र अत्याधुनिकस्य एनटीपीसी ग्रीन एनर्जी लिमिटेड इत्येतस्य ग्रीन हाइड्रोजन हब इत्येतस्याः परियोजनायाः आधारशिलां स्थापयिष्यति। राष्ट्रिय हरित हाइड्रोजन अभियानस्य अन्तर्गतं प्रथमं तावत् एतत् ग्रीन हाइड्रोजन हब इति भविष्यति। अस्याः परियोजनायाः कृते 85,00,000,00,000 रूप्यकाणां निवेशः करिष्यते। प्रधानमन्त्री रेल मार्ग सम्बद्धानां नैकासां परियोजनानामपि आन्ध्रप्रदेशे उद्घाटनं शिलान्यासं च करिष्यति। अष्टादशमं प्रवासी भारतीय दिवसः सम्मेलनम् अद्य ओडिशायाः भुवनेश्वरे समारभते। ओडिशा प्रशासनं 50 देशेभ्यः भारतं प्रति आगम्यमानानां प्रवासी भारतीयानां समक्षे राज्यस्य समृद्धसंस्कृतिं न्यासं च प्रदर्शयिष्यति इति। अस्य सम्मेलनस्य शुभारम्भः युवप्रवासी भारतीय दिवस कार्यक्रमेण सह क्रियते, यस्यायोजनम् ओडिशा प्रशासनं युवविषयक क्रीडा मन्त्रालयेन सह सहभागित्वेन सम्पादयति। प्रधानमन्त्री नरेन्द्रमोदी श्वः एतस्मिन् सम्मेलने भागं भजिष्यति। तत्रैव राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे समापनसत्रस्य अध्यक्षतां करिष्यति। तदनु राष्ट्रपतिः विविधेषु क्षेत्रेषु मान्यप्राप्तेभ्यः प्रवासीभारतीयेभ्यः प्रवासीभारतीयसम्मानं प्रदास्यति। त्रिनिनाद टोब्यागो इत्येतस्य राष्ट्रपतिः क्रिस्टीन कार्ला कंगालु इत्यसौ अस्य संस्करणस्य मुख्यातिथित्वेन उपस्थितो भविष्यति। एकं राष्ट्रं एकं निर्वाचनमित्यनेन सम्बद्धयोः द्वयोः विधेयकयोः संयुक्तसंसदीय समित्याः प्रथमोपवेशनम् अद्य सम्पादयिष्यते। विधेयकद्वयम् आधिकारिकरूपेण संविधान 29,100 संशोधन विधेयकं 24,200 अपि च केन्द्रशासित प्रदेश विधि संशोधन विधेयकं 24,200 मिति नामना अभिज्ञायते। विधिन्याय मन्त्रालयस्य प्रतिनिधयः प्रस्तावित विधेः प्रावधानानां विषये सदस्येभ्यः सूचनां प्रदास्यन्ति। 39-सदस्यात्मिक समित्याः लोकसभायाः 27 सदस्याः राज्यसभातः 12 सदस्याः सम्मिलिताः सन्ति। केन्द्रेण वी नारायणन इत्यसौ भारतीयान्तरिक्षानुसन्धानसंघटनस्य इसरो इत्येतस्य अध्यक्षः अन्तरिक्षविभागस्य सचिवः च नियुक्तः। वी नारायणन इत्येषः अस्य मासस्य 14 दिनांके स्वकार्यभारं स्वीकरिष्यति। असौ निवर्तमानस्य अध्यक्षस्य एस सोमनाथस्य स्थाने आगच्छति इति। नारायणन इत्ययं वर्तमानसमये केरलस्य वलियामालायां इसरो इत्येतस्य लिक्विड प्रोपल्शन सिस्टम सेंटर इत्येतस्य विभागस्य निदेशकत्वेन कार्यं समाचरति। असौ प्रक्षेपास्त्र जगति एकः सुविख्यातः वैज्ञानिकोऽपि वर्तते। दिल्ली विधानसभा निर्वाचनम् एकस्मिन्नेव चरणे फरवरी मासस्य 5 दिनांके समनुष्ठास्यते। तत्रैव मतगणना 8 दिनांके निर्धारितास्ति। निर्वाचनायोगेन ह्यः 70-सदस्ययुतायाः दिल्ली विधानसभायाः निर्वाचनाय समुद्घोषणा कृता। अनया घोषणया सह आदर्शाचारसंहिता क्रियान्विता जाता। ह्यः नवदिल्ल्यां वार्ताहरान् संसूचयन् मुख्य निर्वाचनायुक्तः राजीवकुमारः अकथयत् यत् सम्बद्धाधिसूचना अस्य मासस्य 10 दिनांके प्रख्यापयिष्यति इति। वार्ताः।